श्री गुरुभ्यो नमः। कल्पानोकः पुष्पजालविलसन् नीलालकां मातृकां कान्तां कञ्जदळेक्षणां कलिमलप्रध्वंसिनीं कालिकां काञ्चीनूपुरहारदामसुभगां काञ्चीपुरीनायिकां कामाक्षीं करिकुम्भसन्निभकुचां वन्दे महेशप्रियां काशाभां शुकभासुरां प्रविलसत्कोशातकी सन्निभां चन्द्रार्कानललोचनां सुरुचिरालङ्कारभूषोज्ज्वलां ब्रह्मश्रीपतिवासवादिमुनिभिः संसेवितां हृद्वयां कामाक्षीं गजराजमन्दगमनां वन्दे महेशप्रियां ऐं क्लीं सौरितियां वदन्ति मुनयस्तत्त्वार्थ रूपां परां वाचां आदिमकारणं हृदि सदा ध्यायन्ति यां योगिनः बालां फालविलोचनां नवजपावर्णां सुषुम्नाश्रितां कामाक्षीं कलितावतंससुभगां वन्दे महेशप्रियां यत्पादाम्बुजरेणुलेशम् अनिशं लब्ध्वा विधत्ते विधिर् विश्वं तत् परिपाति विष्णुरखिलं यस्याः प्रसादाच्चिरम् रुद्रः संहरति क्षणात् तदखिलं यन्मायया मोहितः कामाक्षीं अतिचित्रचारुचरितां वन्दे महेशप्रियां सूक्ष्मात् सूक्ष्मतरां सुलक्षिततनुं क्षान्ताक्षरैर्लक्षितां वीक्षाशिक्षितराक्षसां त्रिभुवनक्षेमङ्करीं अक्षयां साक्षाल्लक्षणलक्षिताक्षरमयीं दाक्षायणीं साक्षिणीं कामाक्षीं शुभलक्षणैः सुललितां वन्दे महेशप्रियां ओंकारांगणदीपिकां उपनिषत् प्रासादपारावतीं आम्नायां बुधिचंद्रिकां अघतमः प्रध्वंसहंसप्रभां काञ्चीपट्टणपञ्जरान्तरशुकीं कारुण्यकल्लोलिनीं कामाक्षीं शिवकामराजमहिषीं वन्दे महेशप्रियां ह्रीङ्कारात्मकवर्णमात्रपठनाद् ऐन्द्रीं श्रियं तन्वतीं चिन्मात्रां भुवनेश्वरीं अनुदिनं भिक्षाप्रदानक्षमां विश्वाघौघनिवारिणीं विमलिनीं विश्वंभरां मातृकां कामाक्षीं परिपूर्णचन्द्रवदनां वन्दे महेशप्रियां वाग्देवीति चयां वदन्ति मुनयः क्षीराब्धिकन्येति च क्षोणीभृत् तनयेति च श्रुतिगिरो याम् आमनन्ति स्फुटम् एकानेकफलप्रदाम् बहुविधाकारास्तनूस्तन्वतीम् कामाक्षीं सकलार्तिभञ्जनपराम् वन्दे महेशप्रियाम् मायामादिमकारणं त्रिजगताम् आराधिताङ्घ्रिद्वयाम् आनन्दामृतवारिराशिनिलयाम् विद्यां विपश्चिद्धियाम् मायामानुषरूपिणीं मणिलसन्मध्यां महामातृकाम् कामाक्षीं करिराजमन्दगमनां वन्दे महेशप्रियाम् कान्ताकामदुघा करीन्द्रगमना कामारिवामाङ्कगा कल्याणी कलितावतारसुभगा कस्तूरिकाचर्चिता कम्पातीररसालमूलनिलया कारुण्यकल्लोलिनी कल्याणानि करोतु मे भगवती काञ्चीपुरी देवता।